नमो नमः श्री हरे भक्तिदाय दयावते भक्तिधर्मांग जाताय भक्तकल्पद्रुमाय च सुगंधपुष्पहाराद्य विविधैरुपहारके संपूजिताय भक्तोदय सितांबरधराय च नामनमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्द ऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डोच्छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिहृदय भ्रमदामदर्शकश्चापराजितः आसमुद्रान् सत्कीर्तिः श्रुतसंस्कृतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः अरुषणो दीर्घदर्शी षडूर्मी विजयक्षमः निरहङ्कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्च प्रशंसितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्नो यमदूतविमोचकः पूर्णकामः सत्यवादी गुणग्राहिकतस्म्यः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपनानागुणविचेष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसन्नितं यः पठेतेन पठितं भवेत् वै सर्वमङ्गलं यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीभ्रमरक्षसां योगिनीनां तथा बालग्रहादीनमुपद्रवः अभिचारो रिपुकृतो रोगश्चान्योपिपद्रवः अयोतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनामस्तोत्रं सम्पूर्णम् नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नामनमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः अस्य श्रीजन्मङ्गलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्द ऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः हरे कृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्वृद्धरः शुद्धो राधा कृष्णेष्ट देवतः मरुत्सुप्रियः काली भैरवादिति भीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकला प्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डो छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिहृदय भ्रमदामदर्शकश्चापराजितः आसमुद्रान् सत्कीर्तिः श्रुतसंस्रुतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतन सन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः अरोषणो दीर्घदर्शी षडूर्मी विजयक्षमः निरहङ्कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्च पशंसितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्नो यमदूतविमोचकः पूर्णकामः सत्यवादी गुणग्राहिकतस्म्यः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपनानागुणविचेष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसन्नितं यः पठेतेन पठितं भवेद्वै सर्वमङ्गलं यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयेच्च वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीभ्रमरक्षसां योगिनीनां तथा बालग्रहादिनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनाम सूत्रं सम्पूर्णम्। नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नाम्नमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः। अस्य श्रीजन्मगलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतर इति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः। अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः। हरे कृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्वृद्धरः शुद्धो राधा कृष्णेष्ट देवतः मरुत्सुप्रियः काली भैरवादिति भीषणः जितेन्द्रियो जिताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकला प्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डो छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवितावहः भक्ति संपोषको वाग्मी चतुर्वर्ग फल प्रद निर्मत सरो भक्त वर्मा बुद्धि दाता अति पावन अबुद्धि हृदय भ्रमदाम दर्शक पराजित आस मुद्रां सत कीर्ति श्रुत संस्रुति मोचन उदार सहजानंद साध्वी धर्म प्रवर्तक कंदर्प दर्प दल नो वैष्णव क्रतुकारक पंचायतन सन्मानो नैष्ठिक व्रत पोषक प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सल अरोषणो दीर्घदर्शी षडूर्मी विजय क्षम निरहंकृतिर्द्रोहृजु सर्वोपकारक नियामक शपशंसतिर्विनयवान गुरु अजातवैरी निर्लोभो महापुरुष आत्मदः अखंडितार्ष मर्यादो व्यास सिद्धांत बोधक मनोनिग्रह युक्तिग्नो यमदूत विमोचक पूर्णकामः सत्यवादी गुणग्राही गतस्म्यः सदाचार प्रियतरः पुण्यश्रवण कीर्तनः सर्वमंगल सद्रूप नाना गुण विचेष्टितः इत्येतत् परमं सूत्रं जन्मंगल संहितं यः पठेतेन पठितं भवेत् वै सर्वमंगलम् यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनी ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादिनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयोतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनामसूत्रं सम्पूर्णम् नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नामनमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः अस्य श्रीजन्मगलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः शिवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनित्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डो छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः भक्ति संपोषको वाग्मी चतुर्वर्ग फल प्रद निर्मत सरो भक्त वर्मा बुद्धि दाता अति पावन अबुद्धि हृदय भ्रमदाम दर्शक पराजित आस मुद्रां सत कीर्ति श्रुत संस्रुति मोचन उदार सहजानंद साध्वी धर्म प्रवर्तक कंदर्प दर्प दल नो वैष्णव क्रतुकारक पंचायतन सन्मानो नैष्ठिक व्रत पोषक प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सल अरोषणो दीर्घदर्शी षडूर्मी विजय क्षम निरहंकृतिर्द्रोहृजु सर्वोपकारक नियामक शपशंसतिर्विनयवान गुरु अजातवैरी निर्लोभो महापुरुष आत्मदः अखंडितार्ष मर्यादो व्यास सिद्धांत बोधक मनोनिग्रह युक्तिग्नो यमदूत विमोचक पूर्णकामः सत्यवादी गुणग्राही गतस्म्यः सदाचार प्रियतरः पुण्यश्रवण कीर्तनः सर्वमंगल सद्रूप नाना गुण विचेष्टितः इत्येतत् परमं सूत्रं जन्मंगल संहितं यः पठेतेन पठितं भवेत् वै स्वरमङ्गलं यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनी ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादिनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यते न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरि ओष्टतरशतनामसूत्रं सम्पूर्णम्। नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नाम्नमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः। अस्य श्रीजन्मगलाख्यस्य श्रीहरियोष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः। अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः शिवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः। हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनित्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डोच्छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदातातिपावनः अबुद्धिहृदयभ्रमदामदर्शकश्चापराजितः आस्मुद्रान्सत्कीर्तिः श्रुतसंस्रुतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः परोषणो दीर्घदर्शी षडूर्मी विजयक्षमः निरहङ्कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्च प्रशंसितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्नो यमदूतविमोचकः पूर्णकामः सत्यवादी गुणग्राहिकतस्म्यः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपनानागुणविचेष्टितः। इत्येतत् परमं स्तोत्रं जन्मङ्गलसन्नितं यः पठेतेन पठितं भवेत् वै स्वरमङ्गलं यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनी ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादिनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यते न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिओष्टतरशतनामसूत्रं सम्पूर्णम्। नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नाम्नमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः। अस्य श्रीजन्मगलाख्यस्य श्रीहरियोष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्द ऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः। हरे कृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनित्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डो छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिहृदय भ्रमदामदर्शकश्चापराजितः आस्मुद्रां सत्कीर्तिः श्रुतसंस्कृतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः अरुषणो दीर्घदर्शी षडूर्मी विजयक्षमः निरहङ्कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्च प्रशंसितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्नो यमदूतविमोचकः पूर्णकामः सत्यवादी गुणग्राहिकतस्म्यः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपनानागुणविचेष्टितः। इत्येतत् परमं स्तोत्रं जन्मङ्गलसन्नितं यः पठेतेन पठितं भवेद्वै सर्वमङ्गलम्। यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः। एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः। भूतप्रेतपिशाचानां डाकिनीभ्रमरक्षसां योगिनीनां तथा बालग्रहादीनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यतेव न संशयः। दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः। इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनामस्तोत्रं सम्पूर्णम्। नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नाम्नमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः। अस्य श्रीजन्मगलाख्यस्य श्रीहरियोष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्द ऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः। हरे कृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डोच्छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिहृदय भ्रमदामदर्शकश्चापराजितः आस्मुद्रान्सत्कीर्तिः श्रुतसंस्मृतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः अरुषणो दीर्घदर्शी षडूर्मी विजयक्षमः निरहङ्कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्च प्रशंसितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्नो यमदूतविमोचकः पूर्णकामः सत्यवादी गुणग्राहिकतस्म्यः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपनानागुणविचेष्टितः इत्येतत् परमं स्तोत्रं जन्मङ्गलसन्नितं यः पठेतेन पठितं भवेद्वै सर्वमङ्गलम् यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनीभ्रमरक्षसां योगिनीनां तथा बालग्रहादीनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनामसूत्रं सम्पूर्णम्। नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नाम्नमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः। अस्य श्रीजन्मगलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतर इति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः। अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दन्महं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः। हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवाद्यतिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डोच्छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिहृदय भ्रमदामदर्शकश्चापराजितः आस्मुद्रान्सत्कीर्तिः श्रुतसंस्मृतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कंदर्प दर्प दल नो वैष्णव कृत कारक पंचायतन सन्मानो नैष्ठिक व्रत पोषक प्रगल्भो निस्पृह सत्य प्रतिज्ञो भक्तवत्सल परोषणो दीर्घदर्शी षडूर्मी विजय क्षम निरहंकृतिर्द्रोहृजु सर्वोपकारक नियामक शपशंसितिर्विनयवान गुरु अजातवैरी निर्लोभो महापुरुष आत्मदः अखंडितार्ष मर्यादो व्यास सिद्धांत बोधकः मनोनिग्रह युक्तिग्नो यमदूत विमोचकः पूर्णकामः सत्यवादी गुणग्राही गतस्म्यः सदाचार प्रियतरः पुण्यश्रवण कीर्तनः सर्वमंगल सद्रूप नाना गुण विचेष्टितः इत्येतत् परमं सूत्रं जन्मंगल संहितं यः पठेतेन पठितं भवेत् वै सर्वमंगलम् यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूतप्रेतपिशाचानां डाकिनी ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादिनमुपद्रवः अभिचारो रिपुक्रूतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनामसूत्रं सम्पूर्णम् नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्माङ्गजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सिताम्बरधराय च नामनमष्टुतरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः अस्य श्रीजन्मगलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्दऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरैति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये श्रीकृष्णः शिवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुत्प्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डो छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वातप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशपो निर्दम्भः सर्वजीवितावहः भक्ति संपोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदाता अतिपावनः अबुद्धिहृदय भ्रमदामदर्शकश्चापराजितः आस्मुद्रांसत्कीर्तिः श्रुतसंस्रुतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतन सन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः परोषणो दीर्घदर्शी षडूर्मी विजय क्षमः निरहंकृतिर्द्रोहृजु सर्वोपकारकः नियामक शपशंसितिर्विनयवान गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखंडितार्ष मर्यादो व्यास सिद्धांत बोधकः मनोनिग्रह युक्तिग्नो यमदूत विमोचकः पूर्णकामः सत्यवादी गुणग्राही गतस्म्यः सदाचार प्रियतरः पुण्यश्रवण कीर्तनः सर्वमंगल सद्रूप नाना गुण विचेष्टितः इत्येतत् परमं सूत्रं जन्मंगल संहितं यः पठेतेन पठितं भवेत् वै सर्वमंगलम् यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः भूत प्रेत पिशाचानाम डाकिनी ब्रह्म रक्षसाम योगिनी नाम तथा बाल ग्रहादिनम उपद्रवः अभिचारो रिपुक्रुतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनाम सूत्रं सम्पूर्णम्। नमो नमः श्रीहरे भक्तिदाय दयावते भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च सुगन्धपुष्पहाराद्यैर्विविधैरुपहारके सम्पूजिताय भक्तोदय सितांबरधराय च नामनमष्टोत्तरशतं चतुर्वर्गं विप्सतां सद्यः फलप्रदं नृणां तस्य वक्ष्यामि सत्पतेः अस्य श्रीजन्मगलाख्यस्य श्रीहरिष्टतरशतनामस्तोत्रमन्त्रस्य शतानन्द ऋषिः अनुष्टुप् छन्दः धर्मनन्दनः श्रीहरिर्देवता धार्मिकीति बीजं बृहद्व्रतरिति शक्तिः भक्तिनन्दनीति कीलकं चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः अथ ध्यानम्। वर्णिवेशरमणीयदर्शनं मन्दहासरुचिराननाम्बुजं पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये। श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः भक्तिधर्मात्मजो जन्मा कृष्णो नारायणो हरिः हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः बृहद्व्रतधरः शुद्धो राधाकृष्णेष्टदेवतः मरुत्सुप्रियः कालीभैरवादितिभीषणः जितेन्द्रियो जीताहारस्तीव्रवैराग्य आस्तिकः योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ज्ञानी परमहंसश्च तीर्थकृतैर्थिकार्चितः क्षमानिधिः सदोनिद्रो ध्याननिष्ठस्तपः प्रियः सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः पाषण्डो छेदनपटुः स्वस्वरूपाचलस्थितिः प्रशान्तमूर्तिर्निर्दोषो सुरगुर्वादिमोहनः अतिकारुण्यनयनः उद्वादप्रवर्तकः महाव्रतः साधुशीलः साधुविप्रप्रपूजकः अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः स्वामीनारायणः स्वामी कालदोषनिवारकः सच्छास्त्रव्यसनः सद्यः समाधिस्थितिकारकः कृष्णार्चस्थापनकरः कौलद्वीटकलितारकः प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः निर्मत्सरो भक्तवर्मा बुद्धिदातातिपावनः अबुद्धिहृदयभ्रमदामदर्शकश्चापराजितः आस्मुद्रान्सत्कीर्तिः श्रुतसंस्रुतिमोचनः उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः पञ्चायतनसन्मानो नैष्ठिकव्रतपोषकः प्रगल्भो निःस्पृह सत्यप्रतिज्ञो भक्तवत्सलः अरुषणो दीर्घदर्शी षडूर्मी विजयक्षमः निरहङ्कृतिर्द्रोहृजुः सर्वोपकारकः नियामकश्च प्रशंसितिर्विनयवान् गुरुः अजातवैरी निर्लोभो महापुरुष आत्मदः अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः मनोनिग्रहयुक्तिघ्नो यमदूतविमोचकः पूर्णकामः सत्यवादी गुणग्राहिकतस्म्यः सदाचारप्रियतरः पुण्यश्रवणकीर्तनः सर्वमङ्गलसद्रूपनानागुणविचेष्टितः। इत्येतत् परमं स्तोत्रं जन्मङ्गलसन्नितं यः पठेतेन पठितं भवेद्वै सर्वमङ्गलम्। यः पठे शृणुयाद् भक्त्या त्रिकालं श्रावयित्वा एतदस्य तु पापानि नश्येयुः किल सर्वशः। एतत् संसेवमानानां पुरुषार्थचतुष्टये दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः। भूतप्रेतपिशाचानां डाकिनी ब्रह्मरक्षसां योगिनीनां तथा बालग्रहादीनाम् उपद्रवः अभिचारो रिपुक्रुतो रोगश्चान्योपिपद्रवः अयुतावर्तनादस्य नश्यतेव न संशयः दशावृत्त्या प्रतिदिनमस्याभीष्टं सुखं भवेत् गृहेभिस्त्यागेभिश्चापि पठनीयमिदं ततः इति श्रीशतानन्दमुनिविरचितं श्रीजन्मगलाख्यं श्रीहरिष्टतरशतनामसूत्रं सम्पूर्णम्।